जनस्थाने भ्रांतं कनकमृग तृष्णांधित धिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितं कृतालंका भर्तुर् वदन परिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुतान त्वधिगता कुशलाः संस्कृत ज्ञान संस्तवैः संस्कृताः श्रोतारः प्रकृत्या सदा रामत्वमर्जयतु कामाः सर्वत्र च संस्कृत शिवत्व संसाधकाः संस्कृत साप्ताहिकी श्रोतारः इयमहं पुनरुपस्थिता निधिझाः कार्यक्रमारम्भात् पूर्वं तु समर्पयामि अहम् अभिवादनमयीं विनीतां नतिं प्रत्येक श्रोतृभ्यः शुभाचारस्तु सुशोभते समादरं विनीतभावं च अवाप्य अथ सदाचाराय तु कल्प्यते एव बहुधा विशिष्टं वीक्षणं तदिदं सुभाषितं समाचरितुं निवेदयामि अस्मदीय सहयोगिनीं रिंकू जोशीम्
गुणवत् गुणवत् स्वा उर्वतां परिणतिरवधार्या यत्नतः पंडितेन अतिरवत कृतानां कर्मणां विपत्तेः भवति हृदयदाहि शल्यतुल्यो विपाकः।
कालोयं प्रसंग प्रभागस्य विभागेस्मिन् निखिलानपि श्रोतृगणान् रमणीयैः निनादैः आनन्दयितुमहं प्रार्थये नरेन्द्र दत्तसेमवालम्।
ईश गिरीश नरेश परेश महेश विदेश भूषण भो सांब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् उमया दिव्य सुमंगल विग्रहया लिंगित वामांग विभो सांब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् पूरी कुरु मामद्यमनाथं दूरी कुरु मे दुरितं भो सांब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् शिवाय नमः शिवाय नमः शिवाय नमः नमः शिवाय शिवाय नमः शिवाय नमः शिवाय नमः नमः शिवाय।
सर्वान् आनन्दितवती भूयांसि कार्तज्ञवचांसि विलसन्तु। श्रोतारः विविध घटनाः परिज्ञातुं सरामः अग्रिमं प्रभागं प्रति। अत्र हि विविध घटनाः संकलय्य भवतां समक्षम् उपस्थापयति सहयोगिनी अस्माकं सुषमा शर्मा।
भारतीय वायुसेनायाः एकं वृन्दं द्विवार्षिक बहुराष्ट्रीय अभ्यास पिच ब्लैक इत्यस्मिन् भागं निर्वोढुम् ऑस्ट्रेलिया देशं सम्प्राप्तम्। भारत देशस्य G20 अध्यक्षतायां केन्द्रीय विदेश एवं संस्कृति राज्य मन्त्री मीनाक्षी लेखी वर्यया साकं विशिष्टं साक्षात्कारमेकं सम्पन्नः। अमेरिका देशे वर्षेऽस्मिन् 30-उत्तरैकशतस्य वर्षाणां भीषण ग्रीष्म ऋतोः प्रकोपः दरीदृष्टः।
इदानीं वयं ज्ञान विज्ञान निदर्शनीति अन्वर्थ संज्ञके प्रभागे प्रविशामः। इह प्रभागे कश्चित् महाजनः पण्डित प्रवरः मनीषी स्वानुभवात्मकैः समुपदेशैः अस्माकं पथ प्रदर्शनम् आचरति इति प्रसिद्धमेव। अद्य वयं साहित्य शास्त्रे निपुणस्य श्रीलाल बहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालयस्य प्राध्यापकस्य प्रोफेसर भागीरथी नन्दा महाभागस्य सानिध्येन अस्मान् भवतश्च समुपकरिष्यामः। अस्मान् तैः सह मेलयति अस्माकं सहयोगी युवराज भट्टराई महाभागः।
नमो नमः प्रिय श्रोतारः, अद्यतन संस्कृत साप्ताहिकीति कार्यक्रमे सम्भाषणार्थम् उपस्थितः विशिष्टः अतिथिरस्ति अनेक शास्त्र व्युत्पन्नः विश्वश्लाघ्यचरितः नैक संस्कृत संवर्धन कार्यक्रमाणां प्रवर्तकः प्रखर प्रवक्ता लब्ध साहित्य अकादमी अनुवाद पुरस्कारः समवाप्त संस्कृत प्रतिभा पुरस्कारः भुवनेश्वरात् अनुवाद प्रतिभा सम्मान भाजनी भूतः अन्ताराष्ट्रिय नाल्को कालिदास पुरस्कारेण सभाजितः साहित्य सौहित्य समर्जित मेधा मण्डितः श्री लाल बहादुर शास्त्री केन्द्रीय संस्कृत विश्वविद्यालयस्य साहित्य विभागस्य वरिष्ठः आचार्यः शैक्षणिक पीठस्य च अध्यक्षः प्रोफेसर भागीरथी नन्द महोदयः आचार्यवर भूयो भूयो नमो वाकं व्याहरामि प्राच्य नव्य संस्कृत साहित्य विमर्शशीलस्य भवतः जिह्वाग्रे वाणी नित्यन्ती जीवन्ती च भासते अत्र भवतः सौजन्य मुग्धोऽहं हार्दं स्वागतं निवेदयामि
धन्यवादः नमो नमः युवराज महोदय
मान्य महोदय भवान् खलु संस्कृत वाङ्मय कोविदः एवं तु संस्कृत भाषा पुराणी नवीना च कथ्यते एषा प्राचीनात् प्राचीनतमा नवीनतः नवीनतमा च अस्ति भारतस्य तु सर्वाः अपि भाषाः संस्कृतमूलाः सन्ति परं केचन आक्षिपन्ति यत् संस्कृतं तु अस्माकं केवलं धार्मिक सांस्कृतिक भाषा अस्ति नास्ति एषा राष्ट्रभाषा अस्मिन् विषये संस्कृत वाङ्मयस्य प्राध्यापकत्वेन उत वा लेखकत्वेन कवित्वेन च भवतः किमस्ति मन्तव्यम् कृपया प्रोच्यताम्
समुचितः प्रश्नः पश्यन्तु भवन्तः संस्कृतं सर्वासां भाषाणां जननी न केवलं भारतीयभाषाणां प्रत्युत भारोपीयभाषाणाम् एवम् अन्यासामपि भाषाणां जननी वर्तते
एवं
तत्र संस्कृतस्य प्रसारः न केवलं भारते प्रत्युत समग्रे विश्वे प्रथते
एवं
केवलं संस्कृतेनैव धार्मिकतायाः प्राचीनतायाः पारम्परिकतायाः एव प्रचारः आसीत् सम्प्रति नास्ति इति वयं वक्तुं न शक्नुमः तत्र कारणं भवति अद्यापि संस्कृतम् आधुनिकत्वेन नाम परमाधुनिकत्वेन जीवति अतः साहित्यम् अपराणि शास्त्राणि साहित्यशास्त्रम् इति सर्वमेव संस्कृतभाषायां वर्तते संस्कृतभाषायां विद्यमानानां शास्त्राणाम् अनुरोधेन तेषां च शास्त्राणाम् अनुकरणेन अपरासां भाषाणां साहित्यं प्रसरति
सत्यं
भवन्तः पश्यन्तु अनेकाः भाषाः सन्ति यासु भाषासु विरचितानि साहित्यानि अनुकुर्वन्ति संस्कृतशास्त्रम्
एवं सत्यम्
अतः न केवलं साहित्यशास्त्रम् अपि तु सर्वाण्येव अस्माकं प्राचीनशास्त्राणि यानि संस्कृते निबद्धानि तानि एव तदानीम् इदानीं च अनुकृतानि भवन्ति अन्याभिः भाषाभिः
सत्यम् अत्र भवद्भिः प्रतिपादितं यत् उपजीव्यत्वेन संस्कृतमेव जीवति सर्वत्र
अवश्यम् नास्ति संशयः
एवं सम्यक् मान्य महोदय कथ्यते यत् पुराकाले भारतं शैक्षिकदृशा ज्ञानविज्ञानदृशा धार्मिकदृशा दार्शनिकरीत्या च सर्वथा समृद्धमवर्तत अहं ज्ञातुमिच्छामि यत् तदानीन्तन प्राचीन भारतीय शिक्षा पद्धतिः आसीत् कीदृशी अथ च तद्विषये कृपया संक्षिप्य प्रतिपादितं
अत्यन्तं रमणीयः प्रश्नः
एवं
तत्र यदि वयं पश्यामः अस्माकम् अतीतम्
एवम्
अत्यन्तं गौरवशाली आसीत् अस्माकं देशः सुवर्णपक्षी इति पूर्वं ज्ञायते स्म परन्तु कालस्य कश्चन क्रमः भवति तत्र काश्चन बाधाः आयान्ति
युगधर्मेण
युगधर्माः भवन्ति युगधर्मेण पराभूताः वयं क्वचित् परिवर्तिताः इदानीम् अस्मिन् काले संस्कृतस्य यादृशी दशा आसीत् ताम् अविचिन्त्य इदानीं नवीनरीत्या किमपि भारतीयाः चिन्तयामः पश्यन्तु भवन्तः वदन्ति केचन एवमपि वदेयुः यत् भारतीयधार्मिकतायाः पारम्परिकतायाः सर्वमेव केवलं संस्कृते निबद्धमिति संस्कृतं धार्मिकतां प्रसारयति पारम्परिकतां प्रचारयति इति तन्न केवलम् एतत् अस्माभिः अवधेयं यत् संस्कृतं न केवलं भाषामात्रम्
एवं
यदा संस्कृतं भाषारूपेण वयं स्वीकुर्मः तदानीम् एतत् चिन्तयन्तु संस्कृतं केवलं भाषारूपेणैव स्थास्यति अस्माकं संस्कृतं नाम अस्माकं संस्कृतिः अस्माकं सर्वाः विद्याः अस्माकं सर्वाणि शास्त्राणि अस्माकं जीवनपद्धतिः इति सर्वं संस्कृते निहितमिति अस्माकं संस्कृतम् अपरपर्यायः। अस्माकं जीवनस्य अपरं नाम संस्कृतम्। यत्र अपराः भाषाः नासन् अपरापि कापि भारतीय भाषा नासीत्, सन्ति अपि अत्यन्तं प्रचारतां न प्राप्तवती, तदानीं केवलं संस्कृतमासीत्। यत् संस्कृतं सर्वविधं ज्ञानम् अस्मान् अध्यापयति स्म।
अस्तु, अत्र भवता प्रतिपादितं यत् संस्कृतेन अस्माकं संस्कृति, सभ्यता, जीवन पद्धति सर्वाः अपि निहिता इति संस्कृते।
अपरं च भवन्तः पश्यन्तु, केवलं व्यावहारिकम् अनुशासनं न, अपि तु प्रायोगिकम् अनुशासनमपि अस्माकं संस्कृतं शिक्षयति। अस्माकं गुरुकुलपद्धतिं पश्यतु, तत्र यादृशम् अनुशासनं, तत् अनुशासनम् अस्माकं वाचा, अस्माकं व्यवहारेण प्रस्फुटितं भवति।
सत्यं, तत्र तु विद्या ददाति विनयं प्राथम्येन शिक्षते।
अनुशासनं नाम अनुशासनपदेन सर्वाः एव सम्पन्नाः क्रियाः समुद्भाषन्ते। अतः संस्कृतम् अनुशासनं शिक्षयति, तच्च अनुशासनं सर्वविधम् एव।
अस्तु महोदय, सम्यक् प्रतिपादितं भवता। अस्तु महोदय, भवान् कविकर्म लेखनं करोति, अतः एवं तु छन्दोयुक्त रचना एव भवद्भिः विधीयते, तदर्थमेव भवन्तः सुख्यातः। वयं पश्यामो यत् संस्कृतस्य रचनाकाराणां पुरतः, ये आधुनिक रचनाकाराः सन्ति, तेषां पुरतः एकं कठिनं समाह्वानम् अस्ति अथवा समस्या वर्तते, यत् ते छन्दोबद्ध रचनायै बाद्याः विवशाः वा विधीयन्ते। किमस्ति अस्मिन् विषये भवतः अभिमतं? तत्र छन्दोबद्ध रचना विषये विवशीक्रियन्ते इति आक्षेपः खलु।
अयं कश्चन साहित्योपयोगी प्रश्नः। वस्तुतः छन्दः किम्? छन्दः नाम भवन्तः ऋग्वेदं पश्यन्तु, रवीन्द्रनाथ ठक्कुरस्य समीक्षां पश्यन्तु, छन्दः नाम केवलं कैश्चित् नियमैः बद्धं किमपि वृत्तरूपम् इति स्वीकर्तुं न शक्यते।
एवं, तत्र गणना इत्यादिकं भवति, परं जनैः तद् न स्वीक्रियते, सुरलयतालत्वेन एव स्वीक्रियते।
तत्र तदहं वच्मि, तदतिरिक्तम् इदानीम् अस्माकं वाङ्मये, संस्कृत वाङ्मये भवतु, इतरभाषा वाङ्मये वा भवतु, तत्र छन्दोबद्ध कविताः विरच्यन्ते।
सत्यं,
मुक्तछन्दः कविताः अपि विरच्यन्ते।
सत्यं,
याः मुक्तछन्दसः कविताः सन्ति, किमु तासु छन्दः नास्ति? छन्दः अस्ति।
सत्यं,
छन्द तदर्थं मया उक्तं, छन्दः नाम कतिपय नियमैः परिबद्धं किमपि वृत्तम् इति न, अपि तु शब्दानाम् उचितः संयोगः,
पदशय्या।
पदशय्या तेभ्यः पदेभ्यः स्वतः परिस्फुटितः अर्थः, पुनः पदानामपि अस्माकं गुणप्रकरणादिषु पूर्वाचार्याः वदन्ति, पदानां नृत्यप्रायत्वं, स्वतः प्रयोगः, स्वतः प्रतीतिः। कविः यदि विचिन्त्य विचिन्त्य लिखति, तर्हि तत्र किं तस्य कवित्वम्? कवित्वं नाम शब्दानां स्वतः परापतितत्वम्। यदि कविः तत्र लिखति, लिखितुम् इच्छति, तस्य मनसि स्वतः परापतन्ति शब्दाः, अतः स्वतः परापतितानां शब्दानां स्वतः परापतित अर्थैः सह सम्बन्धः, तेनैव सम्बन्धेन सह कविता रचना एव छन्दः।
एवम्, अद्य छन्दसः अपि एषा परिभाषा अस्माभिः स्वीकरणीया। एवम्, अस्तु आचार्य, अन्ते अधुना भवता सम्यक् प्रतिपादितं, परं भवता बहूनि पुस्तकानि अत्र लिखितानि सन्ति, काव्यानि सन्ति। सद्य एव मया श्रुतं यत् वटवृक्ष, दयानदी, तस्मिन् दिने इत्यादीनि पुस्तकानि भवता प्रकाशितानि सन्ति, ततः किमपि पद्यमेकम् अस्माकं श्रोतृजनेभ्य?
वस्तुतः तस्मिन् दिने इति कथासंग्रह पुस्तकम्।
एवम्, अस्तु,
दयानदी इति छन्दोहीन कविता पुस्तकम्।
एवं, छन्दोहीनमपि लिखति भवान्?
छन्दोहीन कविता पुस्तकम्, अपि च वटवृक्षः इति कापि कथानिका, कापि कथा, संयोगात् अद्यैव सा समाप्ता। तत्र वटवृक्ष छलेन अस्माभिः कथं प्रकृतिः हन्यते, प्रकृति सुरक्षा कथं करणीया, वटवृक्षः वृक्षः सन्नपि कथं क्रन्दति, सः वृक्षः सन्नपि कथं जनान् वाञ्छति, पशून् वाञ्छति, परन्तु जनाः तम् अपाकुर्वन्ति इति एतादृशविषयाः तत्र वर्णिताः। मन्ये नचिरादेव तस्य प्रकाशनं भविष्यति।
अस्तु, भवता संवादाय समयः कल्पितः, एतदर्थं भवते अकैतव धन्यता वचांसि निवेद्यन्ते।
अहमपि आत्मानं धन्यं मन्ये यत् भवद्भिः अहम् एतस्मै कार्याय पात्रीकृतः, अतः एतदर्थम् अहं पौनः पुण्येन धन्यवादैः भवन्तं सभाजयामि। धन्यवाद युवराज महोदय।
नमो नमः।
नमो नमः। नमो नमः। पुनर्मिलामः।
रम्यः संवादो असौ, ननु श्रुति गोचरी कर्तव्यः, विदुषे धन्यता वचनम् आविष्क्रियते सप्रश्रयम्। अधुना वयम् संस्कृत दिग्दर्शन प्रभागम् सम्प्राप्ताः वर्तामहे। संस्कृतानुरागिभिः संस्कृत सेवार्थम् समाचरितानि कृत्यानि दृष्टान्तरूपेण अत्र प्रस्तूयन्ते। तदिदं प्रकाशयति पुरुषोत्तम शर्मा।
नवदिल्लीस्थेन केन्द्रीय संस्कृत विश्वविद्यालयेन तमिलनाडु राज्ये प्राकृत भाषाम् अधिकृत्य एकविंशति दिवसीया राष्ट्रिया कार्यशाला समायोजिता। बुधवासरे सम्पन्नायाम् अस्याम् कार्यशालायाम् त्रयोदश राज्येभ्यः चत्वारिंशत् प्रतिभागिनः सम्मिलिताः अभवन्। कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालयेन जुलाई त्रयोदश्याम् एकदिवसीया राष्ट्रिया संगोष्ठी समायोजिता। मिथिला कांची विद्या संगमः इति प्रकल्पस्य अन्तर्गतम् आयोजितायाम् संगोष्ठ्याम् याज्ञवल्क्य स्मृतेः व्यवहार विचारः इति विषयम् अधिकृत्य विद्वद्भिः विचार विमर्शो विहितः।
अतः परम् बालानामपि संस्कृत भाषायाम् रुचेः ज्ञानस्य च संवर्धनाय बाल मनोहारिभिः कथाभिः उपस्थिता वर्तते ऋचा झा।
सर्वेभ्यः बालकेभ्यः नमो नमः। अहम् ऋचा झा एकाम् कथाम् श्रावयामि। अस्याः शीर्षको वर्तते समानमस्तु भोजनम्। बालकृष्णः गोकुले गोपालनम् करोति स्म। प्रतिदिनं सः यस्यहि वनं गच्छति स्म। गोकुलस्थाः बाल गोपालाः वासुदेवेन सह आसायं हिण्डन्ते स्म। मध्याह्ने ते सर्वे स्वगृहेभ्यः आनीतानि खाद्यवस्तूनि एकत्र उपविश्य खादन्ति स्म। एकस्मिन् दिने भोजनवेलायां सर्वे गोपाः कृष्णं परितः उपाविशन्। देवकी नन्दनः गोपबालान् अपृच्छत् अद्य भोजनार्थं किमानीतम्। तदा प्रथमः अवदत् मम समीपे दध्योदनं वर्तते। अपरः अभाषत मम समीपे पृथुकाः एवमेव सर्वे अपूपाः लड्डुकाः वटकाः मोदकाः आनीताः इति अवदन्। तदा कृष्णः अवदत् अयि मित्राणि वयम् एतेषाम् खाद्यपदार्थानाम् मिश्रणम् कुर्मः। सर्वे गोपालाः आनन्देन कृष्णाय स्वम् स्वम् खाद्यम् अयच्छत्। कृष्णः स्वयमेव पदार्थानाम् मिश्रणम् अकरोत्। सर्वेभ्यः च तद् मिश्रणम् पर्यवेशयत्। तद् अपूर्वम् स्वादिष्टम् मिश्रणम् सर्वेभ्यः अतीव अरोचत। यतः तस्मिन् मिश्रणे न केवलम् खाद्यपदार्थाः अपि तु स्नेहश्च मिश्रितः। तदा गोपनायकः बालकृष्णः अवदत् इतः परम् वयम् सर्वे सम्मिल्य एव भोजनम् कुर्मः। अयि मित्राणि अस्माकम् मनांसि समानानि, विचाराः समानाः, भोजनमपि समानमस्तु।
अधुना संस्कृत भाषा ज्ञानम् विना संस्कृते निगूढम् तत्त्वम् नैवाधिगन्तुम् शक्यते इति कारणात् कैश्चिद् अनुवाद वाक्यैः भाषाम् शिक्षयति अस्माकम् सहयोगिनी मुदिता वेतालः।
प्रथमम् वाक्यमस्ति, उपनिषदः हिन्दू धर्मस्य महत्वपूर्णाः श्रुति धर्म ग्रन्थाः सन्ति। पहला वाक्य है, उपनिषद हिन्दू धर्म के महत्वपूर्ण श्रुति ग्रंथ है। कुमाऊनी में उपनिषद हिंदू धर्मक बहुत महत्वपूर्ण श्रुति धर्म ग्रंथ छे। द्वितीय वाक्यमस्ति, उपनिषदां संख्या अष्टोत्तरैक शत प्राया अस्ति। दूसरा वाक्य है, उपनिषदों की संख्या लगभग 108 है। कुमाऊनी में उपनिषद लगभग 108 छे। तृतीय वाक्यमस्ति, मुख्याः उपनिषदः त्रयोदश सन्ति। तीसरा वाक्य है, मुख्य उपनिषद 13 है। कुमाऊनी में मुख्य उपनिषद 13 हैं। धन्यवादाः।
प्रियाः मे श्रोतारः, यथाक्रमं कार्यक्रमोऽयं समाप्ति पदं सम्प्राप्तो विद्यते। निवर्तनस्य कालेऽस्मिन् भवतां भवतीनां च समुपस्थित्या नितान्तं हर्षमनुभवति ऐक्येन भवतां समिषामपि। अहं निधि झाः कार्तज्ञमाविष्कुर्वती नवीनाङ्कं यावत् भवतः भवतीश्च प्रतीक्षन्ति सर्वानभिवन्द्य प्रतस्थे। जयतु संस्कृतं, जयतु भारतम्।